इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य गुजरातस्य एकतानगरे स्थितस्य स्टैच्यू ऑफ यूनिटी इत्यत्र सरदार वल्लभ भाई पटेल वर्यस्य सार्धैकशततमे जन्मदिवसावधौ 25,000 राष्ट्रिय एकता दिवसस्यावसरे भव्य समारोहे राष्ट्रस्य नेतृत्वं करिष्यति। अस्मिन् कार्यक्रमे भारतस्य ऐक्यं वैविध्यं च प्रदर्शयन्तः भव्यपथसञ्चलनानि सांस्कृतिकप्रदर्शनानि श्रद्धाकुसुमानि च समर्पितानि भविष्यन्ति। राष्ट्रिय एकता दिवसः प्रतिवर्षम् अक्टूबर मासस्य 31 दिनाङ्के सरदार वल्लभ भाई पटेल वर्यस्य जन्मदिवसस्य उपलक्ष्ये आचर्यते। राष्ट्रिय ऐक्यम् अखण्डतां सुरक्षां च प्रोत्साहनाय अयं दिवसः समर्पितः अस्ति। एतत् नागरिकान् स्वराष्ट्रस्य संस्कृतेः च विषये अभिमानाय अपि प्रोत्साहयति। विविधतायाम् एकता इति विषयस्यान्तर्गतं 10 राज्यानां केन्द्रशासितप्रदेशानां च विनिर्मितानि प्रतिबिम्बानि राष्ट्रियसुरक्षादलेन तथा राष्ट्रियापत्प्रतिक्रियादलेन सह प्रदर्शयिष्यन्ते। दिवसस्य स्मरणार्थम् एकता कार्यक्रमाणाम् आयोजनं 2 चरणयोः भविष्यति। प्रथमस्य चरणस्य आयोजनम् अस्य अक्टूबर मासस्य 31 दिनाङ्कादारभ्य नवम्बर मासस्य 25 दिनाङ्कपर्यन्तं भविष्यति। प्रत्येकस्य संसदीयक्षेत्रस्य अन्तर्गतं सर्वेषु मण्डलेषु मण्डलस्तरीय पदयात्रायाः आयोजनं भविष्यति। पदयात्रया सह मण्डलेषु विविधाः विकासात्मक कार्यक्रमाः यथा जलाशयेषु स्वच्छताभियानं, सरदार उपवन इति उपक्रमस्यान्तर्गतं वृक्षारोपणाभियानं, महिलाकल्याणशिबिराणि, योगस्वास्थ्यशिबिराणि, वोकल फॉर लोकल इति प्रचार अभियानं च आरब्धं भविष्यति। द्वितीयचरणस्य आरम्भः नवम्बर मासस्य 25 दिनाङ्कादारभ्य दिसम्बर 6 दिनाङ्कपर्यन्तं भविष्यति। अस्य द्वितीयचरणस्य विस्तारः गुजरात राज्ये सरदार पटेलस्य जन्मस्थलात् 25,100 किलोमीटर परिमिते दूरे केवड़िया नगरस्य स्टैच्यू ऑफ यूनिटी पर्यन्तं भविष्यति। अस्मिन् अवसरे प्रशासनं रन फॉर यूनिटी इति अभियानम् अपि आयोजयिष्यति, यस्मिन् प्रमुखेषु नगरेषु राष्ट्रव्यापी धावन प्रतियोगितापि आयोजिता भविष्यति। प्रधानमन्त्री नरेन्द्र मोदी गुजरात राज्यस्य 2-दिवसीय यात्रायां ह्यः गुजरात राज्यं सम्प्राप्तवान्। सः ह्यः केवड़िया नगरस्य एकतानगरे 40,100 कोटिरूप्यकाणाम् आधारभूत संरचनानां विकास परियोजनानाम् उद्घाटनं शिलान्यासं च कृतवान्। भारत प्रशान्त क्षेत्रीय संवादस्य 7वें संस्करणस्य ह्यः नवदिल्ल्यां समापनम् अभवत्। समग्र समुद्रीय सुरक्षायाः विकासस्य च प्रोत्साहनं, क्षेत्रीय क्षमता विनिर्माणं तथा क्षमता संवर्धनम् इत्येतस्मिन् विषये केन्द्रितस्य 3-दिवसीय सम्मेलनस्य आयोजनं राष्ट्रिय समुद्रीय प्रतिष्ठानेन कृतमासीत्। न्यायमूर्तिः सूर्यकान्तः भारतस्य अग्रिमः मुख्य न्यायाधीशः भविष्यति। एकस्मिन् सामाजिकान्तर्जालीय सन्देशे विधि न्यायमन्त्रिणा अर्जुनराममेघवालेन तम् अभिनन्दितम्। उक्तं च यत् राष्ट्रपतिः द्रौपदी मुर्मुः न्यायाधीशं सूर्यकान्तवर्यम् अग्रिमः मुख्यन्यायाधीशः नियुक्तवती। तस्य नियुक्तिः अग्रिमे मासे भविष्यति। न्यायमूर्तिः सूर्यकान्तः 53वें भारतस्य मुख्यन्यायाधीशः भविष्यति। सः मुख्यन्यायाधीशस्य BR गवई इत्यस्य स्थाने नियुक्तः भविष्यति, यस्य कार्यकालः अग्रिमे मासे 23 दिनाङ्के समाप्तः भविष्यति। केन्द्रीय कृषि कृषक कल्याण मन्त्री शिवराज सिंह चौहानः अवदत् यत् अद्यावधि देशे 10,000 यावत् कृषक उत्पादक संघटनानि इति स्थापितानि सन्ति। FPO इत्येतेषां प्रायः कुलव्यापारः 100 कोटिरूप्यकाणि अभवत्। ICC महिलानाम् एकदिवसीय क्रिकेट विश्व स्पर्धायां गतरात्रौ भारतीय महिला दलेन ऑस्ट्रेलिया दलं 5 पराजितम् इति वार्ताः।